केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् इन्दिरा मन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणी रागिणे जानकी जानहे वल्लवी वल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः द्वारकानायक द्रौपदी रक्षका राक्षसा क्षोभित सीतया शोभितो दण्डकारण्य भू पुण्यता कारण लक्ष्मणे नान्वितो वानरै सेवितो गस्य संपूजितो राघव पातु मा धेनुकारिष्टको निष्टकृद्वेषिणां केशिहा कंसहृद्वंशिका वादकः पूतना कोपकः सूरजा खेलनो बालगोपालकः पातु मां सर्वदा पठेन्दिष्टतं प्रेमतः प्रत्यहं पुरुषः सस्पृहम् वृत्ततः सुन्दरं कर्तुविश्वंभरं तस्य वशूर्हरि जायते सत्वरम्